एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा महाशिवरात्रेः अवसरे ह्यः राष्ट्रपतिः रामचन्द्र पौडेलः उपराष्ट्रपतिः रामसाहेब प्रसाद यादवश्च पशुपतिनाथ मन्दिरं प्राप्य देवाधिदेव महादेवस्य पूजार्चने अकुरुताम् राष्ट्रपतिः पौडेलाय पाशुपतिनाथस्य मूलार्चकेन गणेशभट्टेन पुष्पप्रसादाभिषेकानि प्रदत्तानि आसन् राष्ट्रपतेः पौडेलेन सह तदीया धर्मपत्नी सविता पौडेलश्च सहभागिनी आसीत् महाशिवरात्रेः अवसरे ह्य पशुपतिनाथ मन्दिरस्य परिसरात् प्रहरिणा 75 जनाः निगृहीता वर्तन्ते पाशुपतक्षेत्रे कोलाहलकरणस्य अवांछित गतिविधिनां करणस्य च आरोपे 75 जनाः निगृहीताः इति काष्ठमण्डप जनपद प्रहरी परिसरस्य प्रवक्ता प्रहरी उपरीक्षकः अपिल राज बोहरा असूचयत् राष्ट्रपतिः रामचन्द्र पौडेलः महाशिवरात्रेः नेपाली सेनायाः स्थापनायाः 62-उत्तर-200तमस्य वार्षिकोत्सवस्य च अवसरे टुँडीखेलवर्तिनी सैनिक मञ्चे आयोजिते वर्धापन सैनिक कला प्रदर्शनी समारोहे सहभागी अभवत् तदवसरे नेपाली सेनया राष्ट्रपतेः पौडेलस्य सम्मानाय सैन्याभिवादनम् अर्पितमासीत् समारोहे नेपाली सेनया विभिन्नानि सैन्य कौशलानि प्रस्तुतानि आसन् काष्ठमण्डप विश्वविद्यालयस्य उपकुलपतेः पदस्य कृते नाम्नां परामर्शनस्य प्रक्रियां शीघ्रं सम्पादयितुं विश्वविद्यालयस्य पदाधिकारिभिः उपकुलपत्येन्वेषण परामर्शन समितेः ध्यानाकर्षणं विहितमस्ति विश्वविद्यालयस्य 13 पदाधिकारिभिः संयुक्तरूपेण पत्रं सम्प्रेष्य विश्वविद्यालयस्य उपकुलपति चयन प्रक्रियां सत्वरं सम्पादयितुं ध्यानाकर्षणं विहितम् वर्तते उपकुलपतेः चयनस्य कार्ये विलम्बे सति समितेः कार्यसम्पादन सामर्थ्य निष्पक्षतायां च प्रश्नः उत्थायमानोऽस्तीत्यतः चयन प्रक्रियां यथाशीघ्रं सम्पादयितुं पत्रे अनुरुद्धमस्ति उपकुलपतेः चयनार्थं निर्मितं कार्यविधिं मापदण्डं चाधृत्य 3 जनानां नामानि कुलपतेः समक्षं परामृक्ष्यन्ते इति च विश्वासः पत्रे व्यक्तोऽस्ति कास्की जनपदस्य अन्नपूर्ण ग्रामपालिकायां 15 शय्यायुतस्य आधारभूत चिकित्सालयस्य निर्माणस्य एकवर्ष व्यतीतेऽपि सञ्चालनं सम्भूतं नास्ति 18 कोटि रूप्यकाणां व्ययेन निर्मिते चिकित्सालये त्रिभिः चिकित्साधिकृतैः सह 20 पदेषु निर्धारितेष्वपि जनशक्तेः उपकरणस्य च अभावेन सञ्चालनस्य योजना संशयपूर्णास्तीति ग्रामपालिकायाः स्वास्थ्य संयोजकः ऋषिराम पौडेलः सूचयति स्वास्थ्य मन्त्रालयस्य अनुसारेण गण्डकी प्रदेशे 74 चिकित्सालयानां स्थापनायाः घोषणायां जातायामपि 35 चिकित्सालयाः एव सञ्चालनस्य अवस्थायां वर्तन्ते तत्र नवानां चिकित्सालयानां भवनेषु निर्मितेषु सत्वपि सेवा प्रारब्धा नास्ति एवमेव 17 चिकित्सालयानां भवनानि निर्माणाधीनानि सन्ति चेत् 5 चिकित्सालयानां भवनानां निर्माणकार्ये प्रारब्धेऽपि कार्यम् अस्तव्यस्तं वर्तते इति ज्ञापितमस्ति परराष्ट्र मन्त्रिणा डाक्टर आर्जु राणा इत्यनया सह स्पेन देशस्य विदेश मन्त्रिणा जोसे म्यानुएल अल्वारेस बुएनो इत्यनेन ह्य मेलवार्ता विहिता अस्ति संयुक्त राष्ट्र संघीय मानवाधिकार परिषद 58वें उच्चस्तरीय सत्रे सहभागितायै तत्र विद्यमानयो अनयोर्मध्ये सम्भूते मेलने डाक्टर राणा जलवायु परिवर्तनेन नेपाले जायमानस्य प्रभावस्य विषये नेपालेन अन्तर्राष्ट्रिय मञ्चेषु उत्थापितस्य न्यायस्य कृते स्पेन देशस्य सहयोगाय अनुरुणत् मन्त्री डाक्टर राणा नेपालेन 27-उत्तर-2000तमात् ख्रीष्टवर्षात् 39-उत्तर-2000तमं ख्रीष्टवर्षं यावत् संयुक्त राष्ट्रसंघस्य मानवाधिकार परिषदः सदस्यपदे प्रत्याशिता उद्घुष्टा वर्तते 39-उत्तर-2000तमात् ख्रीष्टवर्षात् आरभ्य 31-उत्तर-2000तम ख्रीष्टवर्षं यावत् आर्थिक सामाजिक परिषदि 37-उत्तर-2000तमाष्ट उत्तरद्विसहस्रतमयोः ख्रीष्टवर्षयोः कृते सुरक्षा परिषदः अस्थायी सदस्य पदे प्रत्याशिता प्रदास्यते इत्यतः तत्र सहयोगार्थं स्पेन देशस्य सर्वकारम् अनुरुद्धवती। ह्य एव मन्त्रिणा डॉ राणा इत्यनया स्लोभाकिया देशस्य विदेश मन्त्रिणा जूरस ब्लानर इत्यनेन सहापि द्विपक्षीया मेलवार्ता विहिता अस्ति। तदवसरे अनयोर्मध्ये नेपाल स्लोभाकिया देशयोः पारस्परिक सम्बन्धस्य विषये, नेपालेन संयुक्त राष्ट्र संघे प्रस्तुतायाः प्रत्याशितायाः विषये, जलवायु परिवर्तनस्य प्रभावस्य विषये, नेपालेन उत्थापितानां प्रश्नानां विषये च विमृष्टम् आसीत्। ह्य एव च मन्त्रिणा डॉ राणा इत्यनया सह मेक्सिको देशस्य अन्तर्राष्ट्रिय सम्बन्धस्य मानवाधिकार सम्बद्धेन उपमन्त्रिणा एनरिक जेभियर ओस मार्टिनाज इत्यनेन च मेलवार्ता विहिता अस्ति। एवमेव परराष्ट्र मन्त्रिणा डॉ राणा इत्यनेन संयुक्त राष्ट्र संघीय मानवाधिकार उच्चायुक्तेन भल्कर टक इत्यनेन सहापि मेलवार्ता विहिता अस्ति। नेकपा एकीकृत समाजवादी दलस्य सचिवालयोपवेशेन अध्यादेशानां प्रक्रियायाम् अन्तर्वस्तुनि च असहमतिः व्यक्ता अस्ति। दलकेन्द्रीय कार्यालये दलाध्यक्षस्य माधव कुमार नेपालस्य अध्यक्षतायां ह्यः उपवेशेन अध्यादेशाः त्रुटिपूर्णाः सन्तीत्यतः संसदि निर्णयार्थं प्रस्तोष्यन्ते चेत् विपक्षे मतदानं कर्तुं निर्णीतम् वर्तते। एवमेव उपवेशेन केन्द्रीय समितितः प्राप्तानि परामर्शनानि समाविश्य तात्कालिक कार्ययोजनाम् अन्य प्रस्तावांश निर्मातुं महासचिवस्य घनश्याम भूषालस्य नेतृत्वे अष्टसदस्यीय कार्यदलं संघटितमस्तीति दलस्य केन्द्रीय प्रचार विभागस्य उपप्रमुखः दामोदर अर्यालः असूचयत्। प्रतिनिधि सभायाः अन्तर्राष्ट्रिय सम्बद्ध पर्यटन समितेः सभापतिः राजकिशोर यादवः नेपाल भारतयोः सम्बन्धं सुदृढं विधातुं समानावसरस्य लाभाय च सहकार्यस्य आवश्यकता अस्ति इति उक्तवान् वर्तते। भारतस्य नवदेहली स्थाने आयोजिते नेपाल भारत सम्बन्धस्य प्रतिवेशी कूटनीतेः बुद्धोपदेशानां सान्दर्भिकतायाश्च विषयेषु आयोजिते अन्तर्राष्ट्रिय सम्मेलने सभापतिः यादवः भारतात् नेपाले जलविद्युत उद्योग पर्यटन प्रभृतिषु क्षेत्रेषु निवेशं वर्धयितुं त्रिपक्षीयया ऊर्जा संविदया क्षेत्रीय सहयोगस्य मार्गः उद्घाटितोऽस्ति इति प्रावोचत्। शुष्क भूस्खलनेन अवरुद्ध संखुवासभा जनपदस्य उत्तरी क्षेत्रस्य भोटखोला मार्ग दिनद्वयानन्तरं सञ्चालितोऽस्ति। कोशी राजमार्गान्तर्गतस्य खाँदवारी किमाथाङ्का मार्गस्य भोटखोला स्थाने 15 मीटर मिताद् उपरिष्टात् विशालहि प्रस्तरहि सौदुरापन्नेन भूस्खलनेन गत सोमवासरात् मार्ग अवरुद्ध आसीत्। भोटखोला ग्रामपालिकायाः हटिया स्थानस्य हुङडुङ स्थानस्य च मध्ये स्थितानां मृत्तिका प्रस्तराणाम् अपसारस्य पश्चात् मार्गः पुनः सञ्चालितोऽस्ति इति उत्तर दक्षिण कोशी राजमार्ग आयोजनायाः सूचनाधिकारी नरेश जिरेल सूचयति। धादिङ जनपदस्य गल्छी ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य गुप्तेश्वरी मन्दिरे मंगलवासरस्य रात्रौ दूरापन्नायां ट्यांकर यानस्य दुर्घटनायां 2 जनौ मृतौ स्तः। दुर्घटनायां 2 जनौ आहतौ च स्तः। दुर्घटनायां गजुरी ग्रामपालिकायाः 6ष्ठवडा क्षेत्रस्य 18 वर्षीयः प्रशान्त चेपाङ, 20 वर्षीयः जयरामश्च मृतौ इति धादिङ जनपद प्रहरी कार्यालयेन ज्ञापितम् वर्तते। एवमेव म्याग्दी जनपदस्य अन्नपूर्ण ग्रामपालिकायाः तृतीय ओडा क्षेत्रस्य दाना सुके बगर स्थाने जीपयानस्य दुर्घटनायां 1 जनो मृतोऽस्ति। दुर्घटनायां 3 जनाः आहताः वर्तन्ते। दुर्घटनायां अन्नपूर्ण ग्रामपालिकायाः चतुर्थ ओडा क्षेत्रस्य घराप स्थानस्य 40 वर्षीया सुनदेवी गौसन मृता इति प्रहरिणा ज्ञापितमस्ति। इति समाचारः।